सर्वेभ्यः अद्य लघुसिद्धान्तकौमुद्याः समासप्रकरणे तत्पुरुषसमासेषु कु गति प्रादिसमासान् पश्यामः। तत्पुरुषे सामान्यतत्पुरुषः दृष्टः, द्विगुसमासः दृष्टः, कर्मधारयः अधीतः, नञ् प्रभृतयः इत्यत्र पञ्चसमासाः सन्ति। नञ् तत्पुरुषः, कुसमासः, गतिसमासः, प्रादिसमासः एवम् उपपदसमासः इति। तत्र नञ् तत्पुरुषः अपि ह्यः दृष्टः। अद्य कु गति प्रादि एतेषां समासानां विषये जानीमः। येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिमुनित्रयं। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रदेशाय लघुसिद्धान्तकौमुदीम्। ह्यः ह्यस्तनपाठं पठामः। विशेषणं विशेष्येण बहुलं भेदकं भेद्येन समानाधिकरणेन बहुलं प्राकृत् नीलम् उत्पलं नीलोत्पलं बहुलग्रहणात् क्वचिन्नित्यं कृष्णसर्पः क्वचिन्न रामो जामदज्ञः। उपमानानि सामान्यवचनैः घन इव श्यामः घनश्यामः। शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्य उपसङ्ख्यानं शाकप्रियः पार्थिवः शाकपार्थिवः देवपूजकः ब्राह्मणः देवब्राह्मणः। नञ् नञ् सुपातः समस्यते नलोपो नञः नञः नस्य लोपः उत्तरपदे न ब्राह्मणः अब्राह्मणः। तस्मान् नुडचि लुप्तनकारान्नयः उत्तरपदस्य अजादेः नुडागमः स्यात् अनश्वः। नैकधा इत्यादौ तु न शब्देन सह सुप्सुपा इति समासः। विशेषणं विशेष्येण बहुलं कर्मधारय विधायकं प्रधानं सूत्रमिदं। विशेषणवाचकः शब्दः भेदकः समानाधिकरणेन विशेष्यवाचकेन सह समस्यते। तत्र प्रथमानिर्दिष्टत्वात् विशेषणस्य सर्वदा पूर्वनिपातः भवति इत्यर्थः। नीलोत्पलम् इति उदाहरणं। बहुलग्रहणात् केचन कर्मधारयसमासाः नित्यं भवन्ति कृष्णसर्पादयः। कुत्रचित् विशेषणविशेष्यभावे सत्यपि समासः न भवति रामोजामदज्ञः इत्यादिषु। उपमानानि सामान्यवचनैः उपमानवाचकस्य शब्दस्य साधारणधर्मबोधकेन शब्देन सह समासः भवति। घनः इव श्यामः घनश्यामः इत्युदाहरणम्। नञ् तत्पुरुषं ससूत्रं सोदाहरणं विवृणुत। नञ् इति सूत्रेण नञः समर्थेन सुबन्तेन सह समासः भवति। तत्र नलोपो नञः इत्यनेन नकारस्य लोपः भवति। पुनः यदि उत्तरपदम् अजादि भवति तदा तस्मान् नुडचि इत्यनेन नुडागमे अन्न इति श्रूयते। यदि हलादिः उत्तरपदं हलादि भवति तर्हि अ इत्येव श्रूयते। अधर्मः अनश्वः इति उदाहरणानि। अत्र कानिचन वाक्यानि दत्तानि, तेषु समासः वक्तव्यः। कः विग्रहः, केन सूत्रेण समासः इति वक्तव्यम्। Just one moment. कृष्णस्य कमलदल विशालं नेत्रं वीक्ष्य गोप्यः मोहिताः. कमलदल विशालं
उपमानानि सामान्यवचनैः धनेन
विग्रहः
कमलदलः इव विशालः
एत्रं नपुंसकं सो कमलदलम् इव विशालं कमलदलम् इत्यत्र समासः
कमलस्य दलः तत्पुरुषः षष्ठी
षष्ठी इत्यनेन कमलस्य दलं कमलदलं षष्ठी इति सूत्रेण तत्पुरुषसमासः कमलदलम् इव विशालं कमलदलविशालम् उपमानानि सामान्यवचनैः इत्यनेन समासः द्वितीया विभक्तिः अत्र तु द्वितीया विभक्तिः अतः तत् इति सर्वनाम उपयुज्यते. राघवी कृष्णे अनागते यशोदा चिन्ताकुला अनागतः तस्मिन् नन्य इत्यनेन नञ् तत्पुरुषसमासः तस्व नलोपो नन्यः इत्यनेन नकारस्य लोपः तस्मान् नुडति इति नुडागमे अनागतः तस्मिन् अनागते विषकलुषं यमुनाजलं वीक्ष्य कृष्णः कुपितः. शुभा भगिनी न श्रूयते भगिनि.
यमुनायाः जलं यमुनाजलं
सूत्रं
षष्ठी तत्पुरुषसमासः
सूत्रं
तेरील भगिनि
षष्ठी इत्येव सूत्रम् षष्ठी सूत्रेण षष्ठी तत्पुरुषसमासः यमुनायाः जलं यमुनाजलं विषकलुषं
कलुषम् इत्युक्ते विषम् इव कलुषं वा
विषयेण कलुषं
कलुषम् इत्युक्ते
पल्यूटेड् वित् पोय्सन् विषयेण कलुषं विषकलुषं सूत्रं तृतीया तत्कृतार्थेन गुणवचनेन इत्यनेन तृतीया तत्पुरुषसमासः विषेण कलुषं विषकलुषं यमुनायाः जलं यमुनाजलम् इति षष्ठी तत्पुरुषः षष्ठी इति सूत्रेण उभयत्रापि द्वितीया विभक्तिः भवति नपुंसकलिङ्गम् इत्यतः न ज्ञायते. लोकहिताय क्रूरसर्पं कालियं निग्रहीतुं कृष्णः यमुना प्राप्तः. मातङ्गि
यमुना प्राप्तः यमुनां प्राप्तः द्वितीया श्रुता प्रतीत गतात्यत्र प्राप्तापन्नैः इत्यनेन क्रूरसर्पं विशेषणं विशेष्येण बहुलं
क्रूरः सर्पः क्रूरसर्पः तं विशेषणं विशेष्येण बहुलम् इति कर्मधारय समासः लोकहिताय
लोकाय हितः
लोकाय हितम् और् लोकेभ्यः हितं लोकहितं तस्मै
चतुर्थार्थबलिहितसुखरक्षितैः
लोकाय हितम् अथवा लोकेभ्यः हितं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति चतुर्थी तत्पुरुषः तस्मै, क्रूरसर्पः क्रूरसर्पः तम्, विशेषणं विशेष्येण बहुलम् इति कर्मधारयः, यमुनां प्राप्तः यमुना प्राप्तः, द्वितीया श्रितातीत पतित गत अत्यस्त प्राप्तापन्नैः इति द्वितीया तत्पुरुषः. नृत्यनिपुणः कृष्णः अधिकालीयफणं चिरं नन्दते. राघवी.
नृत्ये निपुणः नृत्यनिपुणः सप्तमी शब्दैः अधिकालीय अधिकालीयफणे अव्ययं विभक्ति समेत संवृत्तिविरुद्ध्य अर्थाभावाश्रय सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुभूय योगपत्य सादृश्य सम्पत्ति कालीयफण कालीयं च फणं च
फणा इत्युक्ते कः अर्थः?
स्नेक् स्नेक् इति
न श्रूयते.
स्नेक् सर्पः?
सर्पः न. फणा इत्युक्ते हुड् सर्पः शिरोभागः तस्य फणा इति नाम. तदा आङ्ग्लभाषायां कः अर्थः भवति? कालीयस्य फणायाः कालीयस्य फणाः अवयवं फणा कालीयस्य अवयवम् अतः अवयव अवयविभावे षष्ठी विभक्तिः षष्ठी समासः कालीयस्य फणाः कालीयफणाः बिकास् ही हेड् मल्टिपल् फणाः तासु अथवा तेषु फणासु तासु अधिकालीयफणम् सो नृत्ये निपुणः नृत्यनिपुणः सप्तमी शौण्डैः इति सप्तमी तत्पुरुषः कालीयस्य फणाः कालीयफणाः इति षष्ठी तत्पुरुषः कालीयफणासु इति सप्तम्यर्थे अव्ययं विभक्तिसमीप इत्यादिना अव्ययीभावसमासः अधिकालीयफणम् अधिकालीयफणा इति भवति ह्रस्वः अनन्तरम् अमादेशः भवति. कालीयपत्नीकृतां पत्यर्थां प्रार्थनां श्रुत्वा कृष्णः परमकरुणया तं मुमोच. शुभभगिनी. Muted. Okay, self muted now.
कालीय पत्नी कृताम् कालीयस्य पत्नी कालीयपत्नी षष्ठी तत्पुरुषसमासः षष्ठी इति सूत्रम् कालीय पत्न्या कृतां वा
कालीयपत्न्या कृता और् अत्र प्रसङ्गे वस्तुतः तस्य बह्व्यः पत्न्यः कालीयस्य पत्न्यः कालीयपत्न्यः कालीयपत्नीभिः कृता
तृतीया तत्पुरुषसमासः
सूत्रं
तृतीया तत्कृतार्थेन गुणवचनेन पठन्ति एव अस्मि भगिनि
कर्तृकरणे कृता बहुलं कालीयपत्न्यः कर्त्र्यः कालीयपत्नीभिः कृता कालीयपत्नी कृता इत्यत्र कर्तृकरणे कृता बहुलम् इति तृतीया तत्पुरुषः पत्यर्थम्
इति चतुर्थी तत्पुरुषसमासः इति ज्ञायते तत्र
विग्रहः
पत्ये
पत्ये यम् प्रार्थना इति स्त्रीलिङ्गम्, अतः पत्ये यम पत्यर्था काम सूत्रम् तदर्थार्थ बलिहित सुखरक्षित इति परमकरुणया.
அது தெரியல பக்னி எனக்கு.
பரமதரையா சாமான் பரமா கருணா, பரம கருணா பரமாச்சா கருணாச்சா விசேஷணம் விசேஷேண பகுலம். பரமா இது கருணா இது விசேஷம். பரமா சா கருணாச்ச பரம கருணா தயா விசேஷணம் விசேஷேண பகுலம். சோ காளியஸ்ய பத்ன்யஹ காளிய பத்ன்யஹ இது ஷஷ்டி. காளிய பத்னிபிஹி கிருதா காளிய பத்னி கிருதா கர்த்ருகரணே கிருதா பகுலம் இதி த்ருதியா தத்புருஷ சமாசஹ தாம் காளிய பத்னி கிருதாம் பத்யே யம் பத்யர்த்தா தாம் சதுர்த்தீ தததர்த்தார்த்த பலிஹித சுகரக்ஷிதைஹி இதி சதுர்த்தீ தத்புருஷஹ பரமகருணா பரமகருணா தயா பரமகருணயா விசேஷணம் விசேஷேண பகுலம் இத்யனேன கர்மதாரய சமாசஹ. கிருச்சாத் ஜீவிதா காளியா அச்சிராத் யமுனாம் விஹாய நிர்கதஹ. மாதங்கி
ஜஸ்ட் ஒன் மினிட் அப்பாயிட்டு. கிருச்சாத் ஜீவிதா பஞ்சம்யாஹ ஸ்லோகாதிபியஹ இத்யனேன பஞ்சமீ
பஞ்சமீ தத்புருஷ பஞ்சமியஸ்தோகாதிபியஹ இத்யனேன பஞ்சம்யாஹ அலுக் விதீயதே. அதஹ கிருச்சாத் இத்யத்ர ப்ரத்யயஸ்ய லோபஹ நாஸ்தி. அசிராத்
நாசிராத்
நாசிராத் அசிராத் நன்ய இதி நைதத்புருஷ நலோபோ நன்யஹ. சோ கிருச்சாத் ஜீவிதஹ கஷ்டேன ஜீவிதஹ கதஞ்சித் ஜீவிதஹ இத்யர்த்தஹ ஸ்தோகாந்திக தூரார்த்த கிருச்சாணி க்தேன இத்யனேன பஞ்சமீ தத்புருஷஹ தஸ்ய அலுக் பஞ்சம்யா ஸ்தோகாதிபியஹ இதி நாசிராத் அசிராத் நன்ய இதி தத்புருஷஹ நலோபோ நன்யஹ இதி நகாரஸ்ய லோபஹ. கிருஷ்ணபயாதசௌ புனஸ்கதாபி யமுனாம் ந பிரவிவேஷ. நீரஜா பகிரி
பகினி, ஐ டென்ட் ரிவைஸ் பகினி, சாரி ஐ ஹவ் டு டு டுடே ஒன்லி ஐ லேண்டட் இன் திருச்சி, ஐ ஹவ் டு டு.
ராகவி சூத்திரம் பஞ்சமீ பயேன இது சூத்திரேண பஞ்சம்யந்தஸ்ய பயசப்தேன சமாசஹ. கிருஷ்ணாத் பயம் கிருஷ்ண பயம் தஸ்மாத் கிருஷ்ண பயாத். கர்மதாரே சமாசஹ அதீதஹ. அக்ரே கூ கதி பிராதி சர்வேபி சமாசாஹ ஏகேனைவ சூத்திரேண தீயந்தே. குகதி பிராதயஹ இதி சூத்திரம். குகதி பிராதயஹ இதி பிரதமா விபக்தௌ பஹுவசனம் சஹ சுபா சமாசஹ யதா நை ஏவம் குகதி பிராதயஹ. சூத்திரம் சரலம். கு சப்தஹ கதி சம்யகாஹ சப்தாஹ பிராதயஷ்ட சமர்த்தேன சுபந்தேன சமஸ்யந்தே இத்யர்த்தஹ. அனேன விதி சூத்திரேண குசமாசஹ கதி சமாசஹ பிராதி சமாசஷ்ட விதீயதே. ஏதே கு சப்தஹ கதி கதிஹி இதி காசித் சம்ஞா யதா விருத்திஹி குணஹ இத்யாதயஹ சம்ஞாஹ ஏவம் கதி சம்ஞா அஸ்தி. கதி சம்ஞா ஏஷாம் அஸ்தி தே சப்தாஹ இதி அர்த்தஹ. பிராதயஹ பிராதி இத்யனேன பிர பர அபசம் இத்யாதி த்வாவிம்சதிஹி சப்தாஹ க்ருஹ்யந்தே. யான் வயம் சாமான்யதஹ உபசர்கஹ இதி ஜானேமஹ க்ரியாயோகே தேஷாம் உபசர்க சம்ஞா பவதி. அத்ர து பிராதயஹ பிர பர இத்யாதீனாம் சுபந்தேன சஹ சமாசஹ பவதி. தத்ர குசமாசஸ்ய ஆதௌ உதாஹரணம் தீயதே. குத்ஸிதஹ புருஷஹ குபுருஷஹ ஏதே சர்வேபி சமாசாஹ நித்ய சமாசாஹ. குகதி பிராதயஹ இத்யனேன விஹிதஹ சமாசஹ एवम् उपपदमतिङ् इत्यनेन उपपदसमासः. एते चत्वारः अपि नित्यसमासाः, अर्थात् विग्रहः स्वपदविग्रहः न भवति, तेषां पृथक् प्रयोगः न भवति, समस्तस्यैव प्रयोगः. अतः तस्य अर्थ अवबोधनार्थम् अस्वपदविग्रहस्य उपयोगः क्रियते. कु इति कुत्सितार्थे, निन्दार्थे प्रयुज्यते. अतः कुत्सितः पुरुषः, कु इत्यस्य अर्थ कथनं भवति कुत्सितः इति. वस्तुतः स्वपदविग्रहः नास्ति, कुत्सितः पुरुषः कु पुरुषः. नित्यसमासः अस्वपदविग्रहः कथं प्रक्रिया इति अग्रे नास्ति. प्रक्रिया न दर्शिता, न विशेष कोऽपि नास्ति. कु सु पुरुष सु इति अलौकिकविग्रहः. सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि कुपुरुष इति भवति. प्रक्रियायां कोऽपि विशेषः नास्ति. अग्रे गतिसमासः अस्ति. गतिसंज्ञा वस्तुतः गतिसंज्ञा एकेन सूत्रेण न, प्रायः विंशत्या सूत्रैः गतिसंज्ञा दीयते. प्रथमाध्याये चतुर्थपादे षष्टितमसूत्रादारभ्य ऊनाशीतितमसूत्रपर्यन्तमपि गतिसंज्ञा अस्ति. गतिः इत्यधिकारः, तत्र बहूनां शब्दानां गतिसंज्ञा विधीयते. तत्र प्रथमं सूत्रमस्ति गतिश्च. प्रादयः क्रियायोगे गतिसंज्ञाः स्युः. प्रपर इत्यादीनां क्रियायोगे उपसर्गसंज्ञा अपि भवति, गतिसंज्ञा अपि भवति. अतः तेषाम् उपसर्गसंज्ञानिमित्तकानि कार्याणि अपि भवन्ति, गतिसंज्ञानिमित्तकानि कार्याणि अपि भवन्ति. अग्रे एकं सूत्रमस्ति ऊर्यादिच्विडासश्च. अग्रे एतत् सूत्रं पठामः. ऊर्यादिगणे पठिताः शब्दाः च्वि प्रत्ययान्ताः शब्दाः, डाच् प्रत्ययान्ताः शब्दाः. एतेषां सर्वेषामपि गतिसंज्ञा विधीयते. एवम् अन्यानि सूत्राणि सन्ति. अलं भूषणे अलम् इत्यस्ति. पुरस् इति अव्ययं, पुरः इति वदामः, तस्य गतिसंज्ञा भवति. तिरस् तिरः अन्तर्धौ, सो तिरो भवति, तिरस्करोति इत्यादिषु तस्य गतिसंज्ञा अस्ति. साक्षात् करोति, अस्तङ्गच्छति, नमस्करोति, आविष्करोति. सो आल् दीस् आर् वर्ड्स् विच् आर् यूजुवली यूस्ड् लैक् प्रिफिक्सस् अलाङ्ग् वित् द धातु. सामान्यतः एतेषां प्रयोगः धातुभिः सह भवति, यथा विशिष्य कृ धातुना सह. अलङ्करोति, पुरस्करोति, तिरस्करोति, साक्षात् करोति, अस्तङ्गच्छति, नमस्करोति, आविष्करोति इत्यादि. क्रियायोगे एतेषां प्रयोगः भवति, तेषां गतिसंज्ञा दीयते. यत्र गतिसंज्ञा दीयते तत्र समासः भवति इति अग्रे पश्यामः. एवं गतिसंज्ञा एतेषां शब्दानाम् अस्ति, तेषां सुबन्तेन सह समासः भवति. तत्र गतिसंज्ञाविधायकम् एकमेव सूत्रं लघुकौमुद्यां व्याख्यायते. अन्यानि सूत्राणि यथावसरं पठनीयानि. ऊर्यादिच्विडासश्च इति सूत्रम्. ऊर्यादिच्विडासः इति प्रथमाविभक्तौ बहुवचनं, च इति अव्ययं, गतिः इति अनुवर्तते, क्रियायोगे इत्यपि अनुवर्तते. अतः क्रियायोगे ऊर्यादिगणे, ऊर्यादिः इति कश्चित् गणः, तस्मिन् गणे ये शब्दाः पठिताः तेषां च्वि इति प्रत्ययः अस्ति तदन्तानां, डाच् इति प्रत्ययः अस्ति तदन्तानां च गतिसंज्ञा भवति. ऊर्यादिच्युडाचश्च इति गतिसंज्ञाविधायकं सूत्रम्. कुगतिप्रादयः इत्यनेन समासः विधीयते. इदं संज्ञासूत्रं गतिसंज्ञां विधत्ते. ऊर्यादयः, च्व्यन्ताः, डागन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः इति सूत्रार्थः. ऊरीकृत्य इति उदाहरणम्. ऊरी इति ऊर्यादिगणस्य प्रथमः शब्दः. ऊरीकृत्य इत्यस्य अङ्गीकृत्य, टु एक्सेप्ट् आर् टु सपोर्ट् संथिङ्ग् इत्यर्थे ऊरीकृत्य इति प्रयोगः अस्ति. ऊरी इत्यस्य गतिसंज्ञा, तस्य समासः भवति. उदाहरणं पश्यामः. ऊरीकृत्य तस्य विग्रहः भवति अङ्गीकारं कृत्वा. अयमपि नित्यसमासः, स्वपदविग्रहः नास्ति. तस्य अर्थः अङ्गीकृत्य इत्येव अर्थः. तत्र ऊरी सु कृत्वा, कृत्वा इति क्त्वा प्रत्ययान्तः शब्दः, कृदन्तः सो कृदन्ताः अपि सुबन्ताः एव. अतः ऊरी सु कृत्वा इति समासः. कु गति प्रादयः इत्यनेन गतिसंज्ञकस्य ऊरी इत्यस्य कृत्वा इत्यनेन समासः भवति. सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक् ऊरी कृत्वा. तत्र कथं किमर्थं समासः इत्युक्ते समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रम्. क्त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः क्रियते. कदा भवति? समासे. यत्र समासः अस्ति, गतिसमासः क्रियते, तत्र क्त्वा प्रत्ययस्य ल्यबादेशः इति क्त्वा प्रत्ययस्य ल्यप्. अतः क्त्वा इत्यस्य स्थाने त्य, वस्तुतः कृ त्वा इत्यस्ति, त्वा इत्यस्य स्थाने य ल्यप्. ल्यप् प्रत्यये यकारः भवति. ह्रस्वस्य पितिकृति तुक् इत्यनेन तुगागमः. अतः कृत्य इति भवति. कृत्वा इति क्त्वान्तं, कृत्य इति ल्यबन्तम्. ऊरीकृत्य. तस्मात् सुप्रत्ययः सु औजस्यति. ल्यबन्तम् अव्ययं भवति. अतः अव्ययादाप् सुपः इत्यनेन सुपः लुकि ऊरीकृत्य इति रूपम्. वयं यत्र यत्र वदामः क्त्वा प्रत्ययस्य ल्यप् भवति, कदा भवति, उपसर्गः अस्ति चेत् भवति इति वदामः. वस्तुतः उपसर्गः अस्ति चेत् इत्यर्थः न. समासे क्त्वा प्रत्ययस्य ल्यप् भवति इति. समासः कदा भवति? गतिसंज्ञकानां समासः भवति. सर्वेषाम् उपसर्गाणां गतिसंज्ञा अस्ति. यथा उक्तं, प्रादयः क्रियायोगे उपसर्गसंज्ञाः गतिसंज्ञकाश्च भवन्ति. एवञ्च उपसर्गस्य क्त्वा प्रत्ययान्तेन समासः भवति. अतः समासान्तर्गतत्वात् क्त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः भवति. तत्र सर्वत्र समासं कृत्वा क्त्वा प्रत्ययस्य स्थाने ल्यबादेशः क्रियते. न केवलम् उपसर्गाणाम्, अन्ये ये गतिसंज्ञकाः सन्ति, पूर्वं ये ये शब्दाः दृष्टाः, नमस्कृत्य, ऊरीकृत्य, अङ्गीकृत्य, तिरस्कृत्य, साक्षात्कृत्य, सर्वत्रापि समानं भवति. कुगतिप्रादयः इत्यनेन गतिसमासः. गतिसमासत्वात् क्त्वा प्रत्ययस्य ल्यबादेशः इति प्रक्रिया. अवगतम्? ऊर्यादिगणे अन्ये के के शब्दाः सन्ति इति कांश्चन शब्दान् पश्यामः. ऊरीकृत्य, उररीकृत्य, अर्थः समानः. उररीकृत्य अत्र महिषासुरमर्दिनी स्तोत्रे अन्ते अस्ति. उररीकुरुता दुरुतापमपाकुरु मे. उररीकुरु, अङ्गीकुरु इत्यर्थः. ऊरीकृत्य, उररीकृत्य. शकलाकृत्य इत्यस्ति, हिंसां कृत्वा इत्यर्थः. स्वाहाकृत्य, आहुतिं दत्त्वा इत्यर्थे स्वाहाकृत्य. एते सर्वेपि शब्दाः ऊर्यादिगणे पठिताः. अतः ल्यप् कथम् अभिज्ञानं क्रियते? कृत्य, कृत्वा इत्यस्य स्थाने कृत्य इति यत्र अस्ति तत्र ल्यप् अस्ति. ल्यप् कथमस्ति? समासः अस्ति इत्यतः ल्यबस्ति इति अभिज्ञानस्य मार्गः. च्वि इति उक्तम्. ऊर्यादिगणे उक्ताः शब्दाः च्वि प्रत्ययान्ताः इति. च्वि इति कश्चित् तद्धितप्रत्ययः. अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः इति पञ्चमाध्याये च्वि प्रत्ययः विधीयते. अभूततद्भावे अशुक्लं शुक्लं कृत्वा, यत् पूर्वं शुक्लं न आसीत् तं शुक्लं कृत्वा इत्यर्थः. तस्य शुक्लीकृत्य. अशुक्लं शुक्लं कृत्वा अभूत तद्भावे, यः तादृशः नासीत् தம் தாதிருஷம் கிருத்வா கிருப்வஸ்தி யோகே கிர பூ அஸ் த்ரயாணாம் தாதுனாம் யோகே ச்விஹி பவதி ச்வி பிரத்யயஹ பவதி இத்யர்த்தஹ அதஹ சுக்லீ கரோதி சுக்லீ பவதி சுக்லியஸ்தி த்ரேதா அபி தாது த்ரயேண சஹ அபி பிரயோகஹ பவதி தத்ர சுக்லீ கிருத்ய ச்வியந்தஸ்ய சமாசஹ பவதி சுபந்தேன அத்ர ப்ரக்ரியாம் பச்யாமஹ ப்ரக்ரியா ந லிகிதா ப்ரக்ரியா
कापि लिखितमेव स्मरामि एकं क्षणं पश्यामि रिमेम्बर् रैटिङ्ग्
शुक्ल इत्यस्ति शुक्ली इति च्व्यन्तः शब्दः शुक्ल इत्यस्मात् च्वि इति प्रत्ययः क्रियते च्वि प्रत्यये सर्वापहारी लोपः इति उच्यते प्रत्ययस्य भागः न शिष्यते शुक्ल अकारस्य इकारादेशः तस्य दीर्घः शुक्ली इति च्वि प्रत्ययान्तः शब्दः तस्य क्त्वा इत्यनेन समासः यथा पूर्वं दृष्टम् एवं शुक्ली सु कृत्वा कुगतिप्रादयः इत्यनेन समासः सुप्रत्ययस्य लुक् शुक्लीकृत्य समासे अनैपूर्वे क्त्वो ल्यप् इति ल्यवादेशः शुक्लीकृत्य सुप्रत्ययः तस्य लोपः एवमेव स्वच्छीकृत्य अस्वच्छं स्वच्छं करोति भस्मीकृत्य अभस्व भस्म करोति भस्मीकृत्य अपवित्रं पवित्रं कृत्वा पवित्रीकृत्य अनुष्णम् उष्णं कृत्वा उष्णीकृत्य सर्वत्र च्वि प्रत्ययः च्वि इति प्रत्ययः गतिसमासः भवति गतिसमासत्वात् क्त्वा प्रत्ययस्य स्थाने ल्यप् आदेशः भूधातुना सह अपि भवति स्वच्छीभूय स्वयं स्वच्छं भवति चेत् स्वच्छीभूय भस्मीभूय पवित्रीभूय उष्णीभूय भूत्वा इति त्वा प्रत्ययस्य स्थाने भूय इति ल्यप् भवति ऊर्यादि च्वि डाच् अस्ति डाच् इत्यपि कश्चित् तद्धितप्रत्ययः अव्यक्त अनुकरणे शब्दस्य अव्यक्तस्य शब्दस्य अनुकरणे डाच् इति प्रत्ययः भवति डाच् प्रत्यये सति द्वित्वं भवति इति विशेषः पटपटाकृत्य चिटिचिटीकृत्य एवं ये शब्दाः प्रादेशिकभाषासु उपयुज्यन्ते यथा वृष्टेः शब्दः अथवा कस्यचित् पक्षिणः शब्दः अव्यक्तशब्दस्य अनुकरणं तस्य अनुकरणे डाच् इति प्रत्ययः भवति तत्र द्वित्वम् अपि भवति अतः पटपटा इति डाजन्तः शब्दः कृत्वा इत्यनेन समासे ल्यबादेशः भवति पटपटा कृत्य चिटिचिटि कृत्य एवं उदाहरणानि भवन्ति कु गति कुसमासः दृष्टः कु इत्यस्य अव्ययस्य सुबन्तेन सह समासः भवति कुत्सितार्थे निन्दार्थे समासः नित्यसमासः गति गतिसम्यकानां शब्दानां सुबन्तेन सह समासः भवति समासस्य प्रयोजनं प्रायशः क्त्वा प्रत्ययस्य ल्यबादेशः तदेव मुख्यं प्रयोजनं गतिसमासस्य गतिसंज्ञा सर्वेषाम् उपसर्गाणां भवति ऊर्यादि च्वि डाच् ऊर्यादिगणे पठितानां शब्दानां च्व्यन्तानां डाजन्तानां गतिसंज्ञा भवति अन्येषामपि शब्दानां तत्र पूर्वं ये शब्दाः उदाहृताः अलम् अलङ्कृत्य पुरस्कृत्य तिरस्कृत्य साक्षात्कृत्य अस्तङ्गत्य नमस्कृत्य आविष्कृत्य सर्वेपि गतिसमासस्य उदाहरणानि भिन्नैः सूत्रैः एतेषां गतिसंज्ञा विधीयते गतिसंज्ञां निमित्तीकृत्य कुगतिप्रादयः इत्यनेन समासः समासत्वात् क्त्वाप्रत्ययस्य ल्यप् इत्येवं प्रक्रिया भवति केऽपि प्रश्नाः कुसमासे गति समासे वा
वन क्वेश्चन इन छ्विहि द सूत्रम छुपु डजंट अप्लाई
वेर छ्वि सकारस्य समया भवति इकारस्यापि समया भवति वकारस्य वेरप्रत्ययस्य इत्यनेन लोपः प्रत्ययभागः न श्रूयते इट्स् अ सर्वापहारी लोप लैक् क्विप् छ्वि इस् आल्सो अ प्रत्यय द प्रत्यय पोर्शन् इस् कम्प्लीट्लि डिलीटेड् वाट् रिमेन्स् इस् ओन्ली द प्रकृति
इन् कूचमास इस् कुत्सितः दि ओन्ली कैण्ड् आफ् समास यू केन् यूस् आर् इस् देर् अनदर् एक्साम्पल् वेर् कू केन् रेप्रसेण्ट् सम् अदर् meaning as well
no no ko is kutsitarthe eva
okay
agrimaha samasaha pradi samasaha ko gati pradayaha pradayaha yatha uktam pra para apasam ityadayaha tesham yadi kriya yogah asti tarhi gati samya bhavati गतिसमासः एव भवति यत्र क्रियायोगः नास्ति केवलं प्रादि शब्दाः सन्ति तेन सुबन्ताः सन्ति तदा अयं समासः क्रियते प्रादिसमासः इति शोभनः पुरुषः सुपुरुषः अयमपि नित्यसमासः शोभनं भाषितं सुभाषितम् अथवा सुष्ठुभाषितं सुभाषितं सु यथा कु इति निन्दां बोधयति एवं सु इति स्तुतिं बोधयति यदुत्तममस्ति बहु सम्यक् अस्ति तस्य तस्मिन् अर्थे सु इति अव्ययं तस्य सः प्रादिः प्रपर अपसम् अनु अव निस्निर्दुस्दुर् नियाङि तत्र सु सु अभि प्रतिपरि उप इत्यस्ति अतः सु इति प्रादिः तस्य प्रादिसमासः भवति शोभनः पुरुषः सुपुरुषः सुभाषितम् बहूनि पदानि सन्ति तत्र प्रादिसमासस्य विषये पञ्चवार्तिकानि सन्ति प्रादयः गताद्यर्थे प्रथमया तत्र सामान्यतः समानाधिकरण्ये समासः भवति कुगति प्रादयः इति कदाचित् तद्भिन्नेषु भिन्नानां विभक्तीनाम् अपि समासः भवति प्रादिसमासे तदर्थं वार्तिकानि सन्ति प्रादयः गताद्यर्थे प्रथमया इति वार्तिकं प्र इत्यादयः शब्दाः गत इत्यादि अर्थे प्रथमा विभक्त्यन्तेन समस्यन्ते इति वार्तिकम् अत्र एतानि सर्वाणि वार्तिकानि एवं भवति सर्वत्र आदिशब्दः अस्ति एक्स् आदयः वै आदिभिः समस्यन्ते तत्र आदिपदेन किं गृह्यते इति लिस्ट् नास्ति अस्माभिः प्रयोगम् अनुसृत्य तेषां निर्णयः क्रियते केचन प्रादयः गतादिषु अर्थेषु प्रथमान्तेन सह समस्यन्ते इति वार्तिकस्य अर्थः प्र गतः आचार्यः प्राचार्यः वस्तुतः अत्र प्र इत्यस्य गतः इत्यर्थः गतः आचार्यः इत्युक्ते वस्तुतः प्राचार्यशब्दस्य फार्मर् टीचर् इत्येव अर्थः एषु दिनेषु मुख्याः आचार्यः इत्यर्थे प्रयोगः दृश्यते हेड् मास्टर् अथवा प्रिन्सिपल् इत्यर्थे प्राचार्यशब्दः रूढिः तथा अस्ति किन्तु गतः आचार्यः अथवा अग्रे गतः आचार्यः इत्यर्थः स्वीकरणीयः किन्तु प्र आचार्यः प्राचार्यः अलौकिकविग्रहवाक्यं भवति प्र सु आचार्य सु प्रथमान्तेन सह प्र इत्यस्य समासः समासविधायकं सूत्रं कुगतिप्रादयः इति तेन सह इदं वार्तिकम् अपि स्मर्तव्यम् एवं प्रपितामहः प्रगतः पितामहः प्रपितामहः पूर्वं सः पितामहः आसीत् इदानीं तस्य पौत्रस्य यदा शिशुः जायते तस्य पितामहत्वम् अतीत्य अग्रे गतवान् प्रपितामहः ग्रेट् ग्राण्ड् फादर् इत्यर्थः एवं विप्रकृष्टः देशः विदेशः स्वदेशः विदेशः इत्युच्यते तत्र विप्रकृष्टः देशः विप्रकृष्टः दूरः स्मरीयं यत् न दूरे यः देशः अस्ति सः विदेशः. अत्रापि वि इति अव्ययस्य देश इत्यनेन समासः, अयमपि प्रादिसमासः. प्रकृष्टः यत्नः प्रयत्नः, प्र इत्यस्य यत्न इत्यनेन सह प्रकर्षार्थे समासः. एवम् एते सर्वेपि प्रथमान्तेन सह प्रादिसमासस्य उदाहरणानि. शोभनः पुरुषः इत्यपि समानमेव भवति. अत्यादयः क्रान्ताद्यर्थे द्वितीयया, केषुचित् प्रसङ्गेषु द्वितीयान्तेन सह प्रादितत्पुरुषः भवति. अत्र सर्वत्र उत्तरपदं प्रथमान्तमस्ति. उत्तरपदं द्वितीयान्तं कदाचित् भवति. द्वितीयया द्वितीयान्तेन सह समासः भवति. अतिक्रान्तः मालाम्, अतिमालः. He who has crossed or gone beyond the mala इत्यर्थे अतिक्रान्तः मालाम्. मालाम् इति द्वितीया विभक्तिः. अति सु माला अम् इति विग्रहः. अतिमालः, अतिक्रान्तः रेखाम्, अतिरेखः. अतिक्रान्तः संसारम्, अतिसंसारः. अतिक्रान्तः कोपम्, अतिकोपः. एवं समासाः भवन्ति. अति इत्यस्य अतिक्रान्तः इत्यर्थे द्वितीयान्तेन सह समासः भवति. उद्गतः वेलाम्, उद्वेलः. उद्गतः दट् विच् हेस् कम् बियाण्ड् द वेला. वेला इत्यस्य समुद्रस्य सीमा इत्यर्थः. सो वेन् द सी ओवर्स्टेप्स् इट्स् बौण्डरि, यथा सुनामि इत्यादिषु. उद्वेलः समुद्रः नाम वेलाम् उद्गत्य आगतः इत्यर्थः. अभिगतः मुखम्, अभिमुखः. मुखम् अभिगतः, सो दट् विच् इस् कमिङ्ग् टुवर्ड्स् द फेस्, सो फेसिङ्ग् इत्यर्थः. अभिमुखः, अभि इत्यस्य मुखम् इति द्वितीयान्तेन समासः. उत् इत्यस्य वेलाम् इति द्वितीयान्तेन समासः. मानुषम् अतिक्रान्तम्, अतिमानुषम्, सूपर् ह्यूमन् इत्युच्यते. अतिक्रान्तं मानुषम्, अतिमानुषम्. सो एतानि सर्वाणि द्वितीयान्तेन सह प्रादिसमासस्य उदाहरणानि. कुत्र का विभक्तिः इति अर्थम् आश्रित्य भवति. तृतीया, तृतीयान्तेन सह प्रादिसमासस्य उदाहरणानि सन्ति. अवकृष्टः कोकिलया, अवकोकिलः. दट् विच् इस् काल्ड् बै द कोकिल, अवकोकिलः इति. कोकिलस्य शब्दं श्रुत्वा तेन आकृष्टः इत्यर्थे. काल्ड् बै द कोकिल इत्यर्थः. अर्थेन अनुगतम्, अन्वर्थम्. अन्वर्थनाम इति कथ्यते. वाट् डस् इट् मीन्? अर्थेन अनुगतम् दट् विच् इस् असोसियेटेड् वित् मीनिङ्ग्. यः अर्थः शब्दस्य सः अन्वेति इत्यर्थः. अन्वर्थम्, सङ्गतम् अर्थेन, समर्थम्. समर्थः पदविधिः. समर्थशब्दस्य सङ्गतम् अर्थेन, अर्थेन सङ्गतम् इत्यर्थः. वियुक्तम् अर्थेन, दट् विच् इस् डिवाय्ड् आफ् एनि मीनिङ्ग्. व्यर्थम्, व्यर्थं, वेस्ट्. तत्र वि इत्यस्य अर्थशब्देन समासः. अर्थेन वियुक्तं, व्यर्थम्. अत्र सर्वस्य तृतीयान्तेन सह प्रादिसमासः भवति. अत्र प्रादिसमासे तासु तासु विभक्तिषु तानि तानि उदाहरणानि स्मर्तव्यानि. सर्वत्र अर्थम् आश्रित्य एव विग्रहः उच्यते. नियमः नास्ति. अस्य तृतीयान्तेनैव समासः, अस्य चतुर्थ्यन्तेनैव इत्यादि नास्ति. अर्थमाश्रित्य समासः भवति. पर्यादयः ग्लानाद्यर्थे चतुर्थ्या, चतुर्थ्यन्तेन केचन प्रादिसमासाः भवन्ति. परिग्लानः अध्ययनाय, पर्यध्ययनः. सिक् आफ् स्टडिङ्ग्, प्रायः सर्वे परिसमासाः समासेभ्यः परिग्लानाः अधुना पर्यध्ययनः इत्यत्र वियरी ऑफ स्टडी और सिक ऑफ स्टडीइंग इत्यर्थे विशिष्टः प्रयोगः अलं कुमार्यै अलं कुमारिः यः कुमार्यै अलम् इत्युक्ते यः पतिः भवितुम् अर्हः तां पालयितुं तस्य सामर्थ्यमस्ति सः कुमार्यै अलं समर्थः इत्यर्थः अलङ्कुमारिः इति शब्दः उद्युक्तः सङ्ग्रामाय सङ्ग्रामः युद्धं युद्धाय उद्युक्तः उत्सङ्ग्रामः इत्यादिषु चतुर्थ्यन्तेन सह प्रादीनां समासः निरादयः क्रान्ताद्यर्थे पञ्चम्या पञ्चम्यन्तेन अपि प्रादिसमासः भवति निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः कौशाम्बी इति कस्याश्चित् नगर्याः नाम तस्याः निर्गतः हि हू हेज़् लेफ्ट् द सिटि आफ् कौशाम्बी निष्कौशाम्बिः इत्यर्थः उत्क्रान्तः शृङ्खलायाः शृङ्खला चैन् इत्यर्थः उच्छृङ्खलः उच्छृङ्खलः इत्यस्य स्वेच्छाचारी इत्यर्थः He who acts according to his own wish. So freed from any chains or any rules. Uchrankhalaha. Apagatam arthat. Apartham. So that which has gone away from the intended meaning. So apartha is where there is a miscommunication. The real sense is not understood. So apagatam arthat apartham. एवं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी एतैः सह प्रादीनां समासः भवति एते सर्वेपि तत्पुरुषाः पूर्वपदार्थप्रधानाः अत्र निष्कौशाम्बिः गच्छति इत्युक्ते कौशाम्बीनगरं कुत्रापि न गच्छति कौशाम्ब्याः निर्गतः कश्चित् पुरुषः सः एव गच्छति एवमेव सर्वत्रापि यः अध्ययनाय परिग्लानः इत्युक्ते यः परिग्लानः स एव गच्छति न तु अध्ययनं कुत्रापि गच्छति अतः प्रादिसमासः पूर्वपदार्थप्रधानः तत्पुरुषः समानतः प्रथमान्ते तु समानाधिकरण्यमस्ति इत्यतः उभयोः अर्थं समानम् अन्याभिः विभक्तिभिः सह यदा समासः भवति तदा पूर्वपदार्थस्य प्राधान्यं भवति प्रादिसमासे अग्रे अत्र अतिमालः निष्कौशाम्बिः इत्यादि प्रक्रियायां कश्चिद् विशेषः अस्ति अतिक्रान्तः मालाम् इति विग्रहः दत्तः अतिमालः इति समासः तत्र कथं माला अम् अति सु मालाम् अतिक्रान्तः इति विग्रहे माला अम् अतीसु इति अलौकिकविग्रहः कुगतिप्रादयः इति समासः सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुकि अम् सु एतयोः लोपः माला अति उपसर्जनं पूर्वं कुगतिप्रादयः इत्यत्र प्रथमानिर्दिष्टं किं प्रादि इति प्रथमानिर्दिष्टं प्रथमानिर्दिष्टत्वात् अति इत्यस्य उपसर्जनसंज्ञा उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः अतिमाला इदानीं माला इत्यस्य ह्रस्वः अपेक्ष्यते तदर्थं सूत्रमुच्यते एकविभक्ति च अपूर्वनिपाते एकविभक्ति इति प्रथमान्तं च अपूर्वनिपाते इति सप्तमी उपसर्जनम् इति अनुवर्तते इदं संज्ञासूत्रम् उपसर्जनसंज्ञा दीयते अस्माभिः पूर्वमपि एकं सूत्रं दृष्टं प्रथमानिर्दिष्टं समास उपसर्जनं समासविधायकसूत्रे प्रथमाविभक्तौ यत् निर्दिश्यते तस्य उपसर्जनसंज्ञा भवति पूर्वनिपातश्च भवति इति ज्ञातम् इदानीम् अपूर्वनिपाते पूर्वनिपातस्य प्रसङ्गं विहाय अन्यत्र एकविभक्ति उपसर्जनसंज्ञं भवति एकविभक्ति इत्युक्ते किम्
विग्रहे यत् नियत विभक्तिकम् तत् उपसर्जन संयम स्यात्। विग्रहवाक्ये यस्य पदस्य विभक्तिः न परिवर्त्यते तत् एक विभक्ति तस्य उपसर्जन संज्ञा भवति। उपसर्जन संज्ञा भवति किन्तु पूर्वनिपातः न। पूर्वनिपातार्थं प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन उपसर्जन संज्ञा अपेक्ष्यते। अनेन तु अन्यत् प्रयोजनम् अस्ति, अग्रे उच्यते। विग्रहे यत् नियत विभक्तिकं तत् उपसर्जन संज्ञं स्यात् न तु तस्य पूर्वनिपातः। एकविभक्ति इत्युक्ते किम्? वयमिदानीं विग्रहं लिखामः। अतिमालः गच्छति, तस्य विग्रहः कथम्? मालाम् अतिक्रान्तः गच्छति। अतिमालं पश्य, तत्र कथं विग्रहः? मालाम् अतिक्रान्तं पश्य, मालाम् अतिक्रान्तः तं, सो मालाम् अतिक्रान्तं पश्य, अतिमालं पश्य। अतिमालेन उक्तम्, मालाम् अतिक्रान्तेन उक्तम्। अतिमालाय देहि, मालाम् अतिक्रान्ताय देहि। एवं यदा विग्रहवाक्यानि लिखामः तत्र अतिक्रान्तः, अतिक्रान्तम्, अतिक्रान्तेन, अतिक्रान्ताय, अस्य शब्दस्य विभक्तिः परिवर्त्यते। केन सह अन्वयः भवति इति ज्ञात्वा परिवर्त्यते। किन्तु मालाम् इति सर्वदा द्वितीया विभक्तौ एव भवति। तत् एकविभक्ति। विग्रहे यत् नियतविभक्तिकम्, विग्रहवाक्येषु यस्य पदस्य विभक्तिः न परिवर्त्यते, सर्वेषु विग्रहवाक्येषु समानविभक्तिः भवति, तत् उपसर्जनं भवति। अनेन सूत्रेण माला इत्यस्य उपसर्जनसंज्ञा भवति। एकविभक्ति च अपूर्वनिपाते। तस्य किं प्रयोजनम् इति चेत् गोस्त्रियोरुपसर्जनस्य इति सूत्रमस्ति। गोस्त्रियोः इति षष्ठीविभक्तौ द्विवचनम्, उपसर्जनस्य इति षष्ठीविभक्तौ एकवचनम्, ह्रस्वः इति अनुवर्तते। ह्रस्वो नपुंसके प्रातिपदिकस्य गोस्त्रियोरुपसर्जनस्य इति क्रमः। ह्रस्वः विधीयते अनेन सूत्रेण। कस्य ह्रस्वः भवति? गोशब्दः अथवा स्त्री, स्त्रीप्रत्ययान्तः शब्दः। तत् उपसर्जनं भवति चेत्, इफ् द गो शब्द आर् एन् स्त्रीप्रत्ययान्तशब्द गेट्स् द उपसर्जनसंज्ञा, उपसर्जनसंज्ञा बै एकविभक्ति चापूर्वनिपाते, तदा तदन्तस्य प्रातिपदिकस्य ह्रस्वः भवति इति अनेन सूत्रेण उच्यते। तेन किं भवति? अतिमालः, माला अम् अतिसु कुगतिप्रादयः इति समासः। माला अति सुब्लुक् पूर्वनिपातः। इदानीम् अतिमाला इत्यत्र माला इत्यस्य एकविभक्ति च पूर्वनिपाते इत्यनेन उपसर्जनसंज्ञा भवति। नियतविभक्तिकत्वात् उपसर्जनसंज्ञा भवति। उपसर्जनसंज्ञा अस्ति इत्यतः गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः भवति, अतिमाल इति। ततः सुप्रत्ययः सुऔजस् ऋत्वं विसर्गः अतिमालः। तत्र ह्रस्वं साधयितुं गोस्त्रियोरुपसर्जनस्य इति सूत्रम् अपेक्ष्यते। एवञ्च उपसर्जनसंज्ञा द्वयमस्ति। समाससूत्रे प्रथमाविभक्तौ निर्दिष्टस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति। तस्य प्रयोजनं किम्? उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः भवति। विग्रहवाक्ये नियतविभक्तिकस्य एकविभक्ति च पूर्वनिपाते इत्यनेन उपसर्जनसंज्ञा भवति। तस्य फलं गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः। केषुचित् समासेषु द्विविधा अपि उपसर्जनसंज्ञा एकस्यैव भवति, एकस्यैव पदस्य भवति। केषुचित् समासेषु भिन्नस्य भवति, अतिमालः इत्यत्र अति इत्यस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन उपसर्जनसंज्ञा भवति पूर्वनिपातः. माला इत्यस्य एकविभक्ति चापूर्वनिपाते इत्यनेन उपसर्जनसंज्ञा गोत्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः. तत्र उभयोः उपसर्जनसंज्ञा अस्ति भिन्नेन सूत्रेण, तस्य प्रयोजनमपि भिन्नम्. केषुचित् समासेषु एकस्यैव पदस्य संज्ञाद्वयमपि भवति, प्रयोजनं न भवति. पूर्वनिपातः भवति चेत् तत्र ह्रस्वस्य प्रसङ्गः न भवति. संक्षेपः अद्य कुगतिप्रादयः इति सूत्रं दृष्टं. तेन कुसमासः, गतिसमासः, प्राविसमासश्च विधीयते. गतिसंज्ञा केषां भवति इति ज्ञातवन्तः. ऊर्यादिच्विडाचश्च इति सूत्रमस्ति. ऊर्यादिगणे पठितानां, स्प्यन्तानां, राजन्तानां च गतिसंज्ञा भवति, अन्येषामपि भवति. प्रादिसमासे वार्तिकानि दृष्टानि, प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी इति पञ्चवार्तिकानि दृष्टानि. एकविभक्तिचापूर्वनिपाते इति उपसर्जनसंज्ञासूत्रम् अधीतं, तस्य प्रयोजनं गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वः. कुसमासं सोदाहरणं विवृणुत. गतिसमासं सोदाहरणं विवृणुत. द्वित्राणि उदाहरणानि गतिसमासस्य दातव्यानि. प्रादिसमासं सवार्तिकं सोदाहरणं विवृणुत. पञ्चवार्तिकानि अपि लेखनीयानि. प्रत्येकम् एकं वा उदाहरणं दातव्यम्. श्लोकाः सन्ति, श्लोकेषु समस्तपदम् अभिज्ञाय तेषां विग्रहः, सूत्रं च लेखनीयं. कुत्र कुत्र समस्तपदमस्ति, तत्र कः विग्रहः, कः समासः, केन सूत्रेण समासः इति. चत्वारः श्लोकाः सन्ति, तेषु समस्तपदानां विग्रहं विग्रहं लिखन्तु. प्रश्नाः सन्ति वा?
कुलीनः इति अस्ति खलु, कुलीनः इति तत्र कुसमासः अस्ति वा? कुलीनः,
कुलीनः इति कुलशब्दात् निष्पन्नः, तत्र प्रत्ययः अत्र. यतोहि कुलीनः इत्युक्ते उत्तमकुले जातः एव कुलीनः, तत्र निन्दार्थः नास्ति. कुशब्दः अपि न, कुलशब्दात् निष्पन्नः शब्दः. अन्ये केऽपि प्रश्नाः? येनाक्षरतमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणपोऽस्मिमुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्.